अथ द्वितीयः पादः कर्मण्यण् ह्वावामश्च आतोनुपसर्गेकः सुपिस्थः तुन्दशोकयोः परिमृजापनुदोः प्रेदाज्ञः समिख्यः गापोष्टक् हरतेरनुद्यमने च वयसि च आङिताच्छील्ये अर्हः स्तम्भकर्णयोरमिजपोः शमिधातोः संज्ञायाम् अधिकरणे शेतेः चरेष्टः भिक्षासेनादायेषु च पुरोग्रतोग्रेषु सर्तेः पूर्वे कर्तरि कृयो हेतुताच्छील्यानुलोम्येषु दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी किं लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घा बाह्वहर्यत्तद्धनुररुषु कर्मणि भृतौ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु स्तम्भशकृतोरिन् हरतेर्धृतिनाथयोः पशौ फले ग्रहिरात्मम्भरिश्च छन्दसि वनसनरक्षिमथाम् एजेः खश् नासिकास्तनयोर्ध्माधेटोः नाडीमुष्ट्योश्च उदिकूले रुजिवहोः वहाभ्रेलिहः परिमाणे पचः मितनखे च विध्वरुषोस्तुदः असूर्यललाटयोर्दृशितपोः उग्रं पश्येरम्मदपाणिन्धमाश्च प्रियवशेवतः खच् द्विषत्परयोस्तापेः वाचियमो व्रते पूस्सर्वयोर्दारिसहोः सर्वकूलाभ्रकरीषेषु कषः मेघर्तिभयेषु क्रियः क्षेमप्रियमद्रेञ्च आशिते भुवः कर्णभावयोः संज्ञायां भृतृवृजिधारिसहितपि दमः गमश्च अन्तात्यन्ताध्वदूरपारसर्वानन्तेषुडः आशिषि हनः अपेक्लेशतमसोः कुमारशीर्षयोर्निनिः लक्षणे जायापत्योष्टक् अमनुष्यकर्तृके च शक्तौ हस्तिकपाटयोः पाणिघताडघौ शिल्पिनि आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्यर्थेष्वच्वौ कृयः कर्णे ख्युन् कर्तरि भुवः खिष्णुच्खुकयौ स्पृशोऽनुदके क्विन् ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिकृञ्चाञ्च त्यदा दिशु दृशो नालोचने कै च सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनी राजामुपसर्गेऽपि क्विप् भजोऽण्विः छन्दसि सहः वहश्च कव्यपुरीशपुरीष्ये शुण्युट् हव्येनन्तः पादम् जनसनखनक्रमगमो विट् अदोनन्ने क्रव्ये च दुःखकब्घश्च मन्त्रे श्वेतवहोक्थशस्पुरोडाशोऽण्विन् अवेयजः विजुपेच्छन्दसि आतोमनिन्क्वनिब्वनिपश्च अन्येभ्योऽपि दृश्यन्ते क्विप् च स्थः क च सुप्यजातौ निनिस्ताच्छील्ये कर्तर्युपमाने व्रते बहुलमाभीक्ष्ण्ये मनः आत्ममाने खश्च भूते करणे यजः कर्मणि हनः ब्रह्मभ्रूणवृत्रेषु क्विप् बहुलञ्छन्दसि सुकर्मपापमन्त्रपुण्येषु कृयः सोमे सुयः अग्नौ चेः कर्मण्यग्न्याख्यायाम् कर्मणीनि विक्रियः दृशेः क्वनिप् राजनियुधिकृयः सहेच सप्तम्यां जनेर्डः पञ्चम्यामजातौ उपसर्गे च संज्ञायाम् अनौ कर्मणि अन्येष्वपि दृश्यते निष्ठा सुयजोर्ण्वनिप् जीर्यते रत्रन् छन्दसि लिट् लिटः का नज्वा क्वसुश्च भाषायां सदवसश्रुवः उपेयिवाननाश्वाननूचानश्च लुङ् अनद्यतने लङ् अभिज्ञावचने लृट् न यदि विभाषा साकाङ्क्षे परोक्षे लिट् हशश्वतोर्लङ्च प्रश्ने चासन्नकाले लट्स्मे अपरोक्षे च ननौ पृष्टप्रतिवचने नन्वोर्विभाषा पुरिलुङ्चास्मे वर्तमाने लट् लटश्चतुर्षानचावप्रथमासमानाधिकरणे सम्बोधने च लक्षणहेत्वोः क्रियायाः तौ सत् पूङ्यजोश्शानन् ताच्छील्यवयोवचनशक्तिषु चानश इङ्धार्योश्शत्रकृच्छ्रिणि द्विषो मित्रे सुयो यज्ञसंयोगे अर्हः प्रशंसायाम् आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु तृन् अलङ्क्री निराक्री प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच नेश्छन्दसि भुवश्च ग्लाजिस्थश्च घ्नुः त्रसि गृधिदृशिक्षिपेः क्नुः शमित्यष्टाभ्योऽघिनुन् सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेवि सञ्ज्वरपरिक्षिपरिरटपरिवदपरिदहपरिमुहदुषद्विषदृहदुहयुजा क्रीड विविचत्यजरजभजाति चरापचरामुषाभ्याहनश्च वौकशलसकत्थस्रम्भः अपेचलशः प्रेलपसृदृमथवदवसः निन्दहिंसक्लिशखादविनाशपरीक्षिपरिरटपरिवादिव्याभाषासूयो वै देविकृशोश्चोपसर्गे चलनशब्दार्थादकर्मकाद्युच् अनुदात्तेतश्च हलादेः जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलशपतपदः कृधमण्डार्थेभ्यश्च न यः सूददीपदीक्षश्च लशपतपदस्थाभूवृषहनकमगमश्रूभ्य उकै जल्पभिक्षकुट्टलुण्टवृङ्गशाकन् प्रजोरिनिः जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च स्पृहि गृहिपतिदयि निद्रातन्द्राश्रद्धाभ्य आलुच् दाधेत्सिषदसदोरुः सृघस्यदःक्मरच् भञ्जभासमिदो घुरच् विधिभिदिच्छिदेः कुरच् इन्नश्चिसर्तिभ्यः क्वरप् गत्वरश्च जागुरूकः यजजपदशाञ्यङः नमिकम्पिस्म्यजसकमहिंसदीपोरः सनाशंसभिक्ष उः विन्दुरिच्छुः क्याच्छन्दसि आद्रगमहनजनः किकिनौ लिट्च स्वपितृशोर्नजिङ् श्रुवन्द्योरारुः भियः कृक्लुकनौ स्थेशभासपि सकसो वरच् यश्च यङः भ्राजभासधुर्विद्युतोर्जिप्रूजुग्रावस्तुवः क्विप् अन्येभ्योऽपि दृश्यते भुवः संज्ञान्तरयोः विप्रसंभ्योड्वसंज्ञायां धः कर्मनिष्ठन् दाम्नीशसयुयुजस्तुतुदसिसि च मिह पतदशनः करणे हलसूकरयोः पुवः अर्तिलूधूसूखनसहचर इत्रः पुवः संज्ञायां कर्तरिचर्षिदेवतयोः ङीतः क्तः मतिबुद्धिपूजार्थेभ्यश्च कर्मणि दिवापूः सर्वसत्सु बहुलमन्येष्वपि नन्नोऽश्यमिति भञ्जभासदः कर्मण्यष्टौ इति द्वितीयः पादः।